अस्तु, नमस्कारः।
तर्हि अद्यतनविषयः अस्ति
अनिच्प्रत्ययः। अनिच्प्रत्ययस्य प्रसङ्गे किञ्चित् जानीमः एव, साधारणज्ञानम् अस्ति अस्माकं, पठति इति सः पाठयति तथा बहुत्र अस्माभिः दृष्टुं तावता, किन्तु इदानीं गभीररूपेण अस्माकं ज्ञानं भविष्यति।
तर्हि अत्र लिखितमस्ति यत् अणिच् प्रत्ययः मुख्यतः अर्थद्वये भवति,
स्वार्थे प्रेरणार्थे च। यतोहि तत्र चुरादिगणे अस्माकम् अणिच् प्रत्ययः अपि भवति, चोरयति इत्यादि, चोरयति, क्षालयति, प्रेषयति, कथयति। नाम सामान्यतया यदा वयम् अणिच् प्रत्यये चिन्तयामः तदा वयं चिन्तयामः यत्र प्रेरणा भवति, किन्तु अत्र नास्ति। चोरः स्वयं चोरयति,
खलु?
चोरः स्वयं चोरयति, अतः तथा नास्ति, तत्र स्वार्थे अस्ति। धात्वार्थस्य पोषणं करोति तावदेव, क्षालयति अथवा प्रक्षालयति, हस्तं प्रक्षालयामि, तत्र स्वयं प्रक्षालयामि। अतः तत्र स्वार्थे णिच् अस्ति, अद्यतनविषयः प्रेरणार्थे णिच्, यत्र प्रेरयति कोऽपि। तत्र अस्माकं विषयत्रयं भवति। तत्र रत्ना भगिनी पृष्टवती यत् अणिच् प्रत्ययः किमर्थं नाम, किमर्थम् अणिच् इति ध्वनिः वा
इति नाम
ध्वनिः
अणिच्।
अत्र पाणिनिः निर्मितवान् यावन्तः प्रत्ययाः सन्ति, बहवः प्रत्ययाः सन्ति। प्रत्ययः नाम यः अनन्तरम् आगच्छति, शतशः प्रत्ययाः सन्ति, यत् धातोः अनन्तरम् अथवा प्रातिपदिकस्य अनन्तरम् आगच्छति सः प्रत्ययः। यथा सुन्दरता, तत्र तल् इति प्रत्ययः, ता सुन्दरता, सुन्दरस्य भावः सुन्दरता, तत्र तल् इति प्रत्ययः अस्ति। ता इत्यस्य नाम तल् किमर्थम् इति यदि ज्ञातुमिच्छामः चेत्, अथवा प्रेरणार्थे यथा पाठयति, किमस्ति यत् ध्वनिः, यः ध्वनिः आगच्छति सः ध्वनिः सर्वदा प्रत्ययस्य अन्तः अस्ति वा? अस्ति एव। उदाहरणार्थं ता इति सुन्दरता, तल् इति प्रत्ययः, तत्र तकारः अस्ति। अणिच् तत्र इकारः अस्ति मध्ये, इकारः मध्ये अस्ति। वस्तुतः अणिच् प्रत्यये अणकारस्य इत्संज्ञा भवति, तत्र गच्छति, चकारः अपि गच्छति, इकारः अवशिष्यते। तत्र इकारः अस्माकं साक्षात् प्रयोगे आगच्छति, यतोहि उदाहरणार्थं पठ इति धातुः, पठति पठति प्रेरणार्थे अस्माकम् इच्छा अस्ति चेत् तत्र पाठयति भवति, खलु? तत्र पठ इति धातुः प्लस् ईकारस्य ई इति प्रत्ययः अस्ति, ईकारस्य प्रभावेन पठ इत्यस्य मध्ये स्थितः अकारः, तस्य वृद्धिः भवति, आ इति भवति, अकारस्य स्थाने आ, पाठ, पाठी, पठ प्लस् ई पाठी भवति। तदनन्तरं वयम् एतत् सर्वं दत्तमस्ति अत्र, किन्तु नाम शप् आगच्छति, अनन्तरं शप् इत्यस्मिन् शकारपकारयोः इत्संज्ञा लोपश्च अकारः अवशिष्यते, पाठी प्लस् अ। एतत् सर्वं वयं द्रक्ष्यामः अद्य, किन्तु मुख्य विषयः अस्ति यत् प्रत्ययः अस्ति इ, प्रत्ययः अस्ति इ, अणिच् इत्यस्मिन् इकारः अस्ति पाठी, इकारः आवश्यकम् आसीत्, इकारः आवश्यकः आसीत् पाणिनिना. अनन्तरं सः संयोजितवान् अण आरम्भे अण अन्ते च. अहं वदामि स्म यत् अणिच् इत्यस्मिन् अणकारचकारयोः इत्संज्ञा भवति. तत्र अग्रे गत्वा किञ्चित् इतोपि द्रक्ष्यामः, किन्तु अणकारचकारयोः अर्थः अस्ति. चकारः प्रायः उच्चारणार्थमस्ति, अणकारस्य अर्थः अस्ति. यः पाणिनेः पद्धतौ तत्र यस्य इत्संज्ञा भवति स इत् अस्ति. सकार अत्र षकारः यथा शप् इति प्रत्ययः, शप् इति प्रत्ययः षकारः इति यस्य सः षकारः इत्यस्मिन् न शप् इति प्रत्यये षकारः गच्छति न तिष्ठति, अकारः अवशिष्यते. श अप, श अप इत्यस्मिन् षकारः गच्छति, अतः षकारः षकारः इत्संज्ञा, षकारस्य इत्संज्ञा भवति. इत्संज्ञा नाम यस्य लोपः भवति, यः न तिष्ठति गच्छति. षकारः गच्छति इति कारणतः शप् इति प्रत्ययः षित् अस्ति, षकारः इत् यस्य सः. अणिच् प्रत्ययः अणित् अस्ति, नकारः इत्यस्य सः. अतः विशिष्टकार्यं प्रत्ययस्य कार्यं भवति, यत्र यत्र अणित् सम्बन्धिकार्यं भवति तत्र अणिच् एतादृशं कार्यं भविष्यति. यत्किमपि कार्यं भवति णित् णित् प्रत्ययस्य, केवलं णिच्छति न, यः कोऽपि प्रत्ययः णित् णकारः इति यस्य सः, यस्य प्रत्ययस्य आरम्भे णकारः अस्ति स च णकारः गच्छति. किञ्चित् विशिष्टं कार्यं, सूत्राणि सन्ति, प्रत्ययः णित् अस्ति चेत् एतादृशं कार्यं भवति. यत्किमपि अमुककार्यम् भवति तत्र अणित् तथा अस्ति. किञ्चित् कार्यम् अत्र अद्य वयं द्रक्ष्यामः किमर्थं णकारः अस्ति. कोऽपि वर्णः भवितुमर्हति स्म, सः णकारः स्वीकृतवान् अस्तु, तर्हि अणिच् अस्ति. अस्तु, निरञ्जन महोदय, अग्रिमं
निचः एक वैशिष्ट्यं यत् अयं प्रत्ययः यदा विहितः तदा गणीया चर्चा नितरां नोपेक्षिता. धातुः कस्मिन् अपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः.
गणीयचर्चा इत्युक्ते किम्?
दशगणाः सन्ति किन्तु तस्य सम्बन्धः अत्र नास्ति.
दशगणाः नाम मनसि सन्ति वा? नाम मूलविषयः तत्र दशगणाः सन्ति, यथा
लकारः कर्तुं समये
चतुर्षु लकारषु लट् लकारः, तत्र लोट् लकारः, अनन्तरं विधिलिङ्लकारः, लङ्लकारः, लट् लोट् लङ् विधिलिङ्, चतुर्षु लकारेषु तस्य गणीयसम्बन्धः भवति. नाम कस्मिन् गणे अस्ति इति ज्ञानमपेक्षितं रूपस्य ज्ञानार्थं. चूर् इति धातुः चूरादिगणे अस्ति, अतः वयं जानीमः यत् इय चोर चोरय अय अय आगच्छति, क्षालयति आय अय प्रेषयति, अनन्तरं करोति, तत्र ति इति अस्मात् पूर्वम् ओकारः अस्ति खलु, अतः अपरस्मिन् गणे अस्ति. भवति अकारः अस्ति, करोति ओकारः अस्ति, अपरस्मिन् गणे अस्ति. एतादृशभेदः अत्र नास्ति. लट् लोट् लङ् विधि लिङि भवति, अणिचि प्रेरणार्थे अणिचि न भवति. अस्माकं गणीयचर्चा न अपेक्षिता.
पठति वादिगणे, लिखति तुदादिगणे, शालयति चुरादिगणे, प्राप्नोति स्वादिगणे, परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव.
पश्यति वा अत्र पठति, लिखति, अनन्तरं क्षालयति, अनन्तरं प्राप्नोति, तत्र भेदाः सन्ति? ज्योत्स्ना भगिनी वदतु के के भेदाः सन्ति. पठति, लिखति, क्षालयति, प्राप्नोति.
प्राप्नोति ओति अस्ति,
ओति अस्ति.
पठति प्रथमगणे अस्ति, लिखति षष्ठगणे अस्ति.
नो चेत् प्रथमे गणे यदि अभविष्यत् तर्हि लेखति अभविष्यत्. लेखति अभविष्यत्,
गुणः अस्ति,
गुणः अभविष्यत् प्रथमे गणे, षष्ठे गणे न भवति.
शालयति
अय अस्ति,
समीचीनम्.
हा, इदानीम् अनन्तरं किं लिखितमस्ति? परन्तु
परन्तु पाठयति, लेखयति, शालयति, प्रापयति इत्येषां कृते
तिङन्तस्य
रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव.
नाम चत्वारि अत्र पाठयति, लेखति, क्षालयति, प्रापयति, तत्र भेदः अस्ति वा? नास्ति. अस्ति वा? नास्ति खलु. अय सर्वत्र अस्ति. अय नाम तत्र पठति द्वादिगणे प्रथमे गणे अस्ति, तस्य पाठयति, लिखति षष्ठीगणे, तस्य रूपमस्ति णिच्, लेखयति, अनन्तरं तत्र तृतीयमस्ति किं, क्षालयति, चुरादिगणे दशमे गणे अस्ति, दशमे गणे अस्ति, अत्र क्षालयति तिष्ठति. अनन्तरं प्राप्नोति इत्यस्य प्रापयति. तर्हि लट् लोट् लङ् लिङ् तेषु लकारेषु भेदः अस्ति, किन्तु अत्र नाम प्राप्नोति इति प्रापयति भवति. तर्हि यत् नो आसीत् प्राप्नोति, हा पञ्च स्वादिगणे आसीत्, स्वादिगणे अस्ति, किन्तु णिचि प्रापयति भवति. अतः यः गणीयभेदः आसीत् सः भेदः नष्टः भवति. अतः नाम सौकर्यमस्ति अस्माकम् अस्मिन् समापयतु.
येषां गणः अपि नास्ति एव. कस्मिन् गणे इति प्रश्नस्तु नैव उदेति, उदेति चेत् तस्य उत्तरं नास्ति हि, नास्ति हि
इति अस्ति. तर्हि अत्र अग्रिमविषयः प्रेरणार्थकनिच्व्यवस्था. अत्र पदद्वयमस्ति, औपदेशिकधातवः, आतिदेशिकधातवः. पाणिनीय नाम ग्रन्थे तत्र अष्टाध्याय्यां 2000 धातवः सन्ति उप अत्र लिखितमस्ति. अत्र उपद्विशतं धातवः सन्ति. एते धातवः औपदेशिकधातवः, उपदेशिकदातवः, यतोहि तत्र उपदेशे सन्ति, नाम अष्टाध्याय्यां सन्ति. एते दातवः उपदिष्टाः नाम उपदेशे सन्ति, अतः औपदेशिकदातवः सन्ति. अवगच्छन्ति वा? औपदेशिकदातवः तस्मिन् ग्रन्थे वयं प्राप्नुमः, सर्वे दत्ताः. अवगच्छति वा? द्विशतम्
द्विसहस्रम्
द्विसहस्रम् द्विसहस्रम् दातवः द्विसहस्रम् दातवः सन्ति तत्र पठ धातुः पठति कृ धातुः तत्र करोति लिख धातुः लिखति इत्यादिकं लिख पट कृ एतादृशाः द्विसहस्रम् धातवः धातवः सन्ति द्विसहस्रम् किन्तु एते सर्वे औपदेशिकधातवः सन्ति सूची अस्ति एका दीर्घा सूची अस्ति भू इत्यादिकं सर्वे भूआदिगणीयाः धातवः सन्ति दत्ताः सन्ति अनन्तरम् अदादिगणे अस्ति अस् धातुः इत्यादिकं तत्र यावन्तः धातवः सन्ति अदादिगणे जुहादि ज्योत्यादिगणे ददाति दशगणाः सन्ति सर्वे द्विसहस्रं धातवः सन्ति आहत्य औपदेशिकदातवः उपदेशे नाम ग्रन्थे सन्ति ग्रन्थे अष्टाध्याय्यां सूचिताः धातवः सन्ति तावदेव इदानीम् आतिदेशिक आति नाम तद्विहाय तद्विहाय नाम पठ धातुः पठ धातुः पठति पठ धातुः पठ इति धातुः औपदेशिकधातुः धातुः अस्ति औपदेशिकधातुः अस्ति
सर्वे धातवः पाणिनि
सत्यं
सर्वे
सर्वे धातवः औपदेशिकाः किन्तु इदानीम् आदिदेशिकधातवः अत्र पठतु भगिनि पठतु आदिदेशिकधातवः उपरितनात्
उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोपि असङ्ख्याः धातवः सन्ति
बहवः धातवः सन्ति ये तस्मिन् ग्रन्थे न सन्ति द्विसहस्रं धातवः तस्मिन् ग्रन्थे सन्ति द्विसहस्रम् सामान्यतया वयं चिन्तयितुं शक्नुमः यत् मूलधातवः यावन्तः सन्ति सर्वे सन्ति तत्र सर्वे सन्ति अग्रे पठतु
एते धातवः धातुपाठेन न सन्ति
धातुपाठे
न सन्ति अपि तु अस्माभिः निर्मिताः यथा पठ प्लस् निच् पाठि प्लस् शप् प्लस् ति पाठयति अत्र पाठि इति नूतनधातुः निर्मितः निच् प्रत्ययस्य योजनेन चोरी इव यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्ता धातवः इति सूत्रेण धातुसंज्ञकाः
तर्हि अत्र पठ इति धातुः अष्टाध्याय्याम् अस्ति किन्तु पाठि इति नूतनधातुः अस्माभिः निर्मितधातुः अस्ति निर्मितः निर्मितः निर्माणम् इति निर्मितधातुः अस्ति पाठि
पाठि अपि पठ धातुः
न पठ इति धातुः पाठि इति नूतनधातुः अस्ति णिच् प्रत्ययस्य संयोजनेन नूतनधातुः भवति नूतनः धातवः धातुः बहवः प्रत्ययाः सन्ति वदतु न न न द्विसहस्रस्य मध्ये नास्ति पाठि तर्हि पश्यतु पश् इति धातु न पठ पठ पट् इति धातुः औपदेशिकधातुः अस्ति पाठि इति धातुः आदिदेशिकधातुः अस्ति आदिदेशिकधातुः अस्ति तर्हि द्विसहस्रं धातवः अत्र भुवादयो धातवः इति सूत्रं लिखितमस्ति उपरि भुवादयो धातवः इति सूत्रमस्ति एकं तेन सूत्रेण तेषां नाम धातु इति किञ्चन नाम अस्ति धातुः इति नाम संज्ञा अयं नाम इदं नाम इति संज्ञा द्विसहस्रं धातूनां भवति द्विसहस्रं धातूनां संज्ञा अनेन सूत्रेण भुवादयो धातवः धातु इति नाम भवति तेषाम्. अन्यत् सूत्रमस्ति अत्र सरादियन्ता धातवः. ये धातवः ग्रन्थे न सन्ति किन्तु धातवः सन्ति, यथा सन् प्रत्ययः, कश्चन सन् प्रत्ययः अस्ति, सन् सनन्ताः सन्ति तत्र. यथा यथा ज्ञातुमिच्छामि, अहं गन्तुमिच्छामि, सन् धातुः इच्छा भवति, इच्छार्थे अहं गन्तुमिच्छामि, गन्तुमिच्छामि, तत्र गन्तुमिच्छामि सन् गम् प्लस् सन् प्रत्ययः जिगमिष् इति भवति, जिगमिष्यामि, जिगमिष्यामि इत्युक्ते अहं गन्तुमिच्छामि, अहं जिगमिष्यामि इत्युक्ते अहं गन्तुमिच्छामि. जिगमिष् इति नूतनधातुः, गम् इति मूलधातुः, गम् धातुः औपदेशिकधातुः अस्ति, जिगमिष इति धातुः आतिदेशिकधातुः अस्ति. वयं निर्मितवन्तः कथं? गम् प्लस् सन्, अत्र पट् प्लस् निच् पाठि नूतनधातुः अस्ति. तर्हि
उपसर्गः अस्ति अपि नूतनधातुः भवति वा? गच्छति, आगच्छति?
न न न न न, प्रत्ययस्य संयोजनेन, उपसर्गस्य संयोजनेन,
केवलं प्रत्यय.
तत्र सनादि इति दश प्रत्ययाः सन्ति, प्रायः दश प्रत्ययाः, तेषु णिच् इति अन्य इति अन्यतमः एकः प्रत्ययः अस्ति. तर्हि णिच् भू प्लस् णिच् भावि, भावयति. पठ् प्लस् णिच् पाठि, पाठयति. तत्र पुनः 2000 नूतनाः धातवः सन्ति, प्रत्येकं धातोः णिच् मूले 2000 सन्ति, अनन्तरम् अणिच् संयोजयामः, तत्र पुनः 2000 भवति, सन् योजयामः पुनः 2000 भवति. एते सर्वे धातवः सनाद्यन्ता धातवः तिने सूत्रेण तेषां धातुसंज्ञा भवति. अवगच्छति वा? क्रीडातुः
अनन्तरं प्रत्ययाः योजयित्वा लकाराः भवन्ति. अत्र प्रत्ययं योजयित्वा अन्य
नाम क्रीडातुः प्लस् लट् करोति. तत्र क्रीडातुः क्रीडातुः इति मूलधातुः अस्ति. यस्य कस्यापि प्रत्ययस्य संयोजनेन नूतनधातुः भवति इति नास्ति. अत्र सनाद्यन्ता धातवः, सनादि तत्र सनादि, अत्र वस्तुतः एतत् करपत्रं संक्षिप्तरूपेण निर्मितं मया. एकं मूल मम तत्र जालपुटे, जलस्थाने अस्य मूलरूपमपि अस्ति, किञ्चित् इतोपि विस्तारेण उक्तं. तत्र के प्रत्ययाः सन्ति इति दत्ताः सन्ति, प्रायः दश प्रत्ययाः सन्ति. सन् इति प्रत्ययः अस्ति इच्छार्थे, अनन्तरम् अणिच् प्रेरणार्थे अस्ति. दश प्रत्ययः, यः कोऽपि प्रत्ययः, नाम लट् इति प्रत्ययः अस्ति, लट् भू प्लस् लट् तत्र भवति इति, किन्तु लत् इति अस्य संयोजनेन नूतनधातुः न भवति. अनेन सूत्रेण केवलं दश प्रत्ययाः सन्ति येषां संयोजनेन नूतनधातुः भवति. जिगमिषा इति नूतनधातुः. पाणिनीयग्रन्थे अष्टाध्याय्यां 2000 धातवः, ते सर्वे औपदेशिकाः धातवः सन्ति. अनन्तरम् आति नाम तस्मात् बहिः, उपदेशात् बहिः आति, तस्मात् बहिः इति. अणिच्छत्यस्य संयोजनेन नूतनधातुः भवति. हा अस्तु. अनन्तरं हेतुमति च इति सूत्रमस्ति.
इत्युक्ते आतिदेशिकधातवः अपि द्विसहस्रधातवः
न बहवः सन्ति, असङ्ख्याः. भवती उक्तवती, स्वयम् उक्तवती असङ्ख्याः असङ्ख्याः.
अतः ये सनाद्यन्त धातवः भवति एते दश प्रत्ययः तस्य योजनेन तेषां योजनेन योजनेनापि नूतनधातवः भवति. तद्विहाय अपि
तद्विहाय नाम सनाद्यन्तधातवः प्रायः केवलं दश इति न.
ओ ते अपि अनेकाः सन्ति
प्रायः दश दश इति मूले किन्तु
प्रमुखदशाः सन्ति.
सर्वे वदन्ति असङ्ख्याः भवन्ति नूतनधातवः असङ्ख्याः भवन्ति इति. अजस्राः सङ्ख्याः भवन्ति. अतः नाम अनन्ताः इति वक्तुं न शक्नुमः.
केवलं
बहवः सन्ति इति चिन्तयन्तु. हेतुमति च इति हेतुमति च इति णिच् विधायकं सूत्रमस्ति. यत्र प्रेरणार्थे वयं वक्तुमिच्छामः तत्र अहं पिता पुत्रं पाठशालां गमयति. पुत्रः पाठशालां गच्छति. पिता पुत्रं पाठशालां गमयति. गन्तुं प्रेरणां ददाति. भवान् गच्छतु, इदानीं समयः जातः. सः गमयति पुत्रं. तत्र पुत्रः प्रयोज्यः, पिता प्रयोजकः. पुत्रः पुत्रः पाठशालां गच्छति. तत्र पुत्रः कर्ता अस्ति वा? कर्ता अस्ति वा? पुत्रः पुत्रः पाठशालां गच्छति. कर्ता कः? पुत्रः खलु. तत्र हा सत्यं, पुत्रः इति कर्ता. इदानीं पिता पुत्रं पाठशालां गमयति. तत्र कर्ता कः?
पिता.
किन्तु गच्छति कः?
पुत्रः.
किन्तु तत्र पुत्रः कः? तत्र कर्मपदमस्ति वा अथवा सः न गच्छति वा? सः नाम एजेण्ट् इति नास्ति वा? सः स्वयं गच्छति अथवा अन्य कोऽपि गच्छति? कः गच्छति?
पुत्रः गच्छति.
तर्हि
किन्तु गमयति, गमयति तस्य तस्य कर्मपदम्.
अत्र अत्र कर्ता द्वयमस्ति, प्रयोज्यकर्ता प्रयोजककर्ता. प्रयोज्यकर्ता प्रयोजककर्ता, कर्ता द्वयमस्ति. यत्र एक यत्र एकम् एकः करोति, अन्यः प्रेरणां ददाति कर्तुम्. एकः करोति, अन्यः तस्य पृष्ठतः प्रेरणां ददाति कर्तुम्. तत्र प्रयोज्यकर्ता कत् करोति, प्रयोज्यकर्ता प्रेरणां ददाति कर्तुं करणार्थम्. कर्ता द्वयमस्ति. अत्र हेतुमति च वदति यत् प्रयोजकव्यापारे प्रशनादौ वाच्ये धातुर्णिच् स्यात्. प्रयोजकव्यापारे, व्यापारे नाम कार्ये, प्रयोजककार्ये अथवा व्यापारे नाम एक्षन्, प्रयोजकस्य कार्ये प्रशनादौ वाच्ये धातोः णिच् प्रत्ययः स्यात्. धातोः अत्र अनुवृत्तिसहितसूत्रमस्ति. हेतुमति च हेतुमान् नाम सः प्रयोजकः, हेतुमान् अस्ति. पिता पुत्रं पाठशालां गमयति इति वाक्यम् अस्तु. एकनिमेषः पिता पुत्रं पाठशालां गमयति इति वाक्यमस्ति. तत्र पिता पुत्रस्य पाठशालायाः गमनस्य हेतुः. पिता पुत्रस्य पाठशालायाः गमनस्य हेतुः पिता. अतः पितुः हेतुमान्, यथा बुद्धिमान्, धनवान्, हेतुमान्, तस्मिन् हेतुः अस्ति, तस्मिन् हेतुः, सः हेतुमान् पितुः.
गमयति इत्युक्ते सेन्स् ओर्
इति गन्तुं प्रेरणां ददाति, गमनार्थं प्रेरणां ददाति, प्रेरणा.
अत्र
अर्थद्वयम् अस्ति इति चिन्तयामि.
किं किं पृष्टवती?
गमयति इत्युक्ते अर्थः does it mean he sends or takes?
Whatever you want to say, he gets him to go. He has him go to school.
पाठयति इत्युक्ते मम चिन्तनम् आसीत् टीचर्स्.
He has him learn. He has him, he makes him read. He makes him go, he makes him read. He makes him, gives him, aham patayami, bhavati patati, patati. I make you, bhavati shravayatu. Shravayatu, ganam shravayatu. I make you recite, tatra vadayatu, tam vadayatu. वदति भवती वदति वादयतु मेक् हर् स्पीक् न श्रावयति नाम यु मेक् मी लिसन् यु मेक् मी लिसन् श्रुणोति भवती लिसन् श्रावयति नाम यु मेक् मी लिसन् मेक् मी डु इन्स्पायर् मी टु डु गमयति इन्स्पायर् हिम् टु गो मेक् हिम् गो हेव् हिम् गो अस्तु तर्हि अत्र हेतुमान् स हेतुः भवति गमनस्य हेतुः भवति अतः हेतुमति नाम सप्तमी अस्ति हेतुमति वदतु हेतुः नाम कारणं निमित्तं कारणं हेतुः समानम् अस्तु हेतुः हेतुमति धातोः अणिच् प्रत्ययः परश्च तर्हि धातोः नाम पञ्चमे धातोः अनन्तरम् अणिच् भवति धातोः अनन्तरम् अणिच् भवति प्रत्ययः णिच् प्रत्ययः परश्च परश्च नाम अनन्तरं धातोः अनन्तरं यत्र कर्ता हेतुमान् अस्ति
स्वयं न करोति किन्तु कारयति
अस्तु तर्हि अग्रे गच्छेम अत्र तिङन्तरूपस्य साधनार्थं सोपानत्रयमस्ति प्रथमं सोपानमस्ति धातुः प्लस् णिच् प्रत्ययः अनन्तरं किञ्चित् णिच् निमित्तम् अङ्गकार्यमस्ति उदाहरणार्थं पट् इति धातुः प्लस् णिच् पट् प्लस् णिच् किं भवति नूतनधातुः पाठि पाठि पट् प्लस् प्लस् णिच् इत्युक्ते पट् प्लस् इ पठि भवति वा अथवा पाठि पाठि किमर्थम् पठि प्लस् इ पाठि किमर्थं भवति अत्र ईकारस्य कारणेन पठ् धातोः अकारस्य वृद्धिः भवति कारणमस्ति णिच् इट् तर्हि यत्र उदाहरणार्थं वदामि कार्य अत्र मुख्यकार्यं द्वयं भवति यत्र उदाहरणार्थम् इको यनचि वयं जानीमः यण् सन्धिः इको यनचि अस्ति अपि तत्र किं भवति तत्र इकारस्य स्थाने यकारः भवति किमर्थम् किं वदति कस्यां दशायां नाम अस्ति गच्छति अस्ति गच्छति तत्र इकारस्य स्थाने यकारः भवति वा अस्ति गच्छति अस्ति अस्ति गच्छति इकारस्य स्थाने यकारः गच्छति वा भवति वा तर्हि कारणं किं यत् अस्ति अपि इत्यस्यां दशायां इकारस्य स्थाने य भवति किन्तु अस्ति गच्छति तत्र न भवति तर्हि कारणं किम् अकारः कीदृश कीदृशः अस्ति तत्र वदतु अचि 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 सत्यम् एकोर्यनचि अत्र अच् अस्ति खलु सत्यं सत्यं भगिनि तत्र अचि अस्ति एकः यण् नाम इकारस्य स्थाने य कस्यां दशायाम्
अचि
नाम सूत्रं किं वदति एको एकः यण् कदा अचि परे अचि परे अचि परे अच् इति तस्य कारणमस्ति तदा इकारस्य यकारः भवति यदा अकारः अनन्तरम् अच् अच् कश्चन अच् अस्ति अनन्तरं तदा अस्ति प्लस् एव तत्र भवति वा अस्ति एव यकारः न भवति अच् के के वर्णाः सन्ति अचि अच् अच् अचि के के वर्णाः सन्ति सर्वेश्वराः तर्हि अस्ति एव भवति वा अस्ति प्लस् एव सविसाचि महोदय अस्ति प्लस् एव किं भवति भवति वा यान्सन्धि भवति वा नास्ति अस्ति प्लस् एव किमर्थम् हा तत्र एव तत्र कारणं किम् अस्ति प्लस् एव कारणं किम् एकारः एव इत्यस्य एकारः अच् प्रत्याहारे अस्ति खलु अच् प्रत्याहारे अस्ति अतः इकारस्य स्थाने यकारः भवति अस्त्येव अस्ति अपि अस्ति अपि अस्ति एव अस्ति एव इति भवति भवति न वा भवति यतोहि कारणमस्ति अच् एकः यण् कदा भवति अचि परे अच् परे अस्ति चेत् तर्हि निमित्तमस्ति अच् कारणं हेतुः अस्ति अच् खलु तत्र कारणमस्ति तत्र अतः वयं वदामः इदं कार्यं सन्धिकार्यं वर्णकार्यमस्ति वर्णकार्यमस्ति यतोहि वर्णः निमित्तमस्ति निमित्तमस्ति अस्ति प्लस् गच्छति न भवति यतोहि गकारः निमित्तं नास्ति अस्ति अपि अकारः निमित्तम् अस्ति अतः भवति तस्मिन् कार्ये वर्णः निमित्तम् अस्ति सन्धिकार्ये कण्डिशन् अस्ति कण्डिशन् फुल्फिल् भवति चेत् भवति कण्डिशन् तदा भवति फुल्फिल्ड् यदा अच् अस्ति तत्र एको यानचि अच् इति वर्णः कार्यम् इति कारणमस्ति अत्र पट् पट् प्लस् इ अत्र वर्णकार्यं नास्ति कार्यम् अस्ति किन्तु वर्णः निमित्तं नास्ति अत्र अत्र प्रत्ययः निमित्तमस्ति प्रत्ययः निमित्तमस्ति अवगच्छति वा कः अहं किम् उक्तवान् वदतु भेदः कः रत्ना भगिनी वदतु
पाठी तत्र सन्धिकार्यं वर्णकार्यं नास्ति किन्तु प्रत्ययस्य कारणेन आकारः आगच्छति धातु
आकारः आगच्छति यत्र प्रत्ययः निमित्तं भवति तत्र कार्यस्य नाम अङ्गकार्यं यत्र वर्णः निमित्तमस्ति तत्र वर्णकार्यमिति वदामः कार्यद्वयमस्ति वर्णकार्यं प्रत्ययकार्यं कदाचित् द्वयमपि भवितुमर्हति एकस्मिन् समये यदा तथा भवति तदा अङ्गकार्यं बलवत् अस्ति प्रथमं भवति बलवत् भवति तस्य बलमस्ति अङ्गकार्यं प्रथमं भवति अनन्तरं स्वरकार्यं भवति तर्हि अस्माभिः अवगन्तव्यमस्ति अङ्गकार्यं नाम किं वर्णकार्यं नाम किम् अवगच्छति वा न वा सविसाचि महोदय अवगच्छति वा तत्र अस्ति अपि इत्यस्मिन् अस्ति अपि हा तत्र द्वितीयशब्दः अस्ति कः अपि खलु किन्तु पूर्ण अपि यदा शृण्वन्तु एकनिमिष अस्ति प्लस् अपि इत्यस्मिन् यदि वयं निर्णेतुम् इच्छामः यत् इकारस्य स्थाने यकारः भविष्यति न वा तत्र पूर्णतया अपि इति शब्दं द्रष्टुम् इच्छामः वा अथवा केवलम् अपि इत्यस्य प्रथमवर्णः नाम पूर्णतया पूर्णशब्दः ज्ञातव्यः वा अथवा केवलं शब्दस्य प्रथमवर्णः प्रथमवर्णः खलु नाम यः कोऽपि शब्दः भवतु आरम्भे अच् अस्ति चेत् भवति शब्दः यः कोऽपि भवतु नाम अस्माकं तस्मिन् अवधानं नास्ति केवलं प्रथमवर्णः अतः वर्णः निमित्तमस्ति किन्तु अत्र अणिच्छति प्रत्ययः अत्र अस्माकम् अवधानम् अस्ति यत् वर्णः कः वर्णः इति न प्रत्ययः अणिच् अस्ति न वा इति प्रश्नः तत्र भेदः अस्ति केवलं नाम णकारचकारयोः लोपः भवति गच्छतः अवशिष्यते इकारः किन्तु इकारस्य वर्णकार्यम् अत्र नास्ति ईकारस्य तत्र अणकारस्य लोपः जातः अतः अकारस्य वृद्धिः जातः यतोहि इकारः तत्र प्रत्ययः अणित् अस्ति णकारस्य इत्यस्य सः प्रत्ययः णिच् प्रत्ययः अणित् अस्ति अतः भवति अतः वर्णकार्यमस्ति अङ्गकार्यम् अतः अङ्गकार्यमस्ति क्षम्यताम् अत्र अङ्गकार्यम् अवगच्छति वा किञ्चित् अग्रे गच्छामः अत्र सूत्रत्रयं द्रक्ष्यामः तत्र स्पष्टं भविष्यति इदानीं स्पष्टं भविष्यति किञ्चित् अग्रे गच्छामः उदाहरणं दृष्ट्वा स्पष्टं भविष्यति तर्हि अत्र धातुः प्लस् णिच् प्रत्ययः अत्र णिच् निमित्तम् अङ्गकार्यमस्ति णिच् निमित्तम् अङ्गकार्यमस्ति अत्र यथा पठ् प्लस् णिच् पाठी भविष्यति पठि न भवति पाठी या अकारस्य आ इति णिच् निमित्तम् अङ्गकार्यमस्ति तर्हि पाठी अनन्तरं पाठ् नाम पठ् प्लस् इ पाठ् प्लस् इ भवति अनन्तरं द्वयोः पाठ् प्लस् इ संयोजनेन पाठी इति निचन्तदातुः अस्ति पाठी नूतनदातुः अस्ति प्रथमसोपानम् अनन्तरं निजन्तदातुः प्लस् शप् विकरणप्रत्ययः तर्हि लट् दशलकाराः सन्ति खलु णिच् णिजन्तानाम् अपि दशलकाराः सन्ति पाठयति लटि पाठयतु लोटि लृटि पाठयिष्यति एतत् सर्वम् अपाठयत् लङि एतत् सर्वं भवति दशलकारेषु तर्हि अत्र लट्लकारे वयं वदामः निजन्तदातुः पाठि प्लस् शप् प्रत्ययः यदा पाठि प्लस् ति मध्ये शप् आगच्छति एतत् सर्वं द्रक्ष्यामः निजन्तः धातुः प्लस् शप् शापिति प्रत्ययः अस्ति. यत्र प्रत्ययः अस्ति तत्र प्रत्ययनिमित्तं कार्यं सम्भवति, सर्वत्र न भवति. णिजन्त नाम पट् प्लस् णिच् चकारस्य जकारः, णिच् प्लस् अन्त णिजन्त, तत्र कः सन्धिः अस्ति? जस्त्वसन्धिः अस्ति, जस्त्वसन्धिः अस्ति खलु. चकारस्य च णिजन्त णिजन्तम् णिजन्तदातुः अस्ति. निजन्तदातुः प्लस् शप् विकरणप्रत्ययः. अत्र किं द्रक्ष्यामः, शप् इत्यस्य शप् इति कारणतः इदानीं द्रक्ष्यामः, शप् इति कारणतः पाठी इत्यस्य ईकारस्य स्थाने ए, ईकारस्य स्थाने ए, तर्हि पाठी प्लस् शप्, पाठे प्लस् शप्, पाठे प्लस् शप् शकारपकारयोः शकारपकारयोः लोपः भवति. पाठे प्लस् अ, तर्हि कीदृश सन्धिः अत्र? पाठे प्लस् अ कः सन्धिः भवति? पाठे प्लस् अ अवग्रहः न, तत्र तत्र पदान्ते तत्र कस्यचित् सन्धेः अपवादः अस्ति, सः अपवादः अस्ति. मूल मूलसूत्रं मूलसन्धिः कः? पाठे 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 यान्तवान्तः भवति. पाठे प्लस् अ तत्र किं भवति? यान्तवान्तसन्धौ तत्र एकादश स्थाने ऐ ऐ आदेश सत्यं सत्यं सविशासि महोदय समीचीनं. पाठे प्लस् अ तत्र एकादशस्थाने ऐ, तर्हि पाठै प्लस् अ प्लस् ति संयोजयतु. पाठयति इति अस्ति न वा? पाठयति. हा तर्हि अत्र शब् निमित्तम् अङ्गकार्यं पाठी प्लस् ए, अनन्तरं द्वयोः संयोजने तत्र यान्तवान्तसन्धि पाठे प्लस् अ पाठय, पाठय इति नूतनम् अङ्गम् अस्ति. पाठय प्लस् ति संयोजयतु, पाठयति इति तृतीयं सोपानम् अङ्गं प्लस् तिङ्, तिङ् नाम ति. पाठय प्लस् ति पाठयति, पाठय प्लस् ति पाठयति. न न न सत्यं सत्यं सत्यं, भवती एतावता न जानाति. अहं वदामि यत्र प्रत्ययाः सन्ति तत्र शप् अस्ति किन्तु शकारपकारयोः लोपः भवति. तत्र इत् संज्ञा, इत् संज्ञा, इत् संज्ञा नाम उदाहरणार्थं भवती जानाति यत् माहेश्वराणि सूत्राणि, माहेश्वरसूत्राणि सन्ति खलु, अ इ किं किमस्ति अ इ ऊण, तत्र णकारः अस्ति किन्तु णकारस्य प्रयोजनं कुर्मः तत्र वक्तुमेव अ इ ऊण, अ इ ऊण खलु, अ इ ऊण रुल् रिक्, तत्र णकारः ककारः तत्र तेषाम् इत् संज्ञा भवति, इत् न तिष्ठति गच्छन्ति. अतः णिच् णिच् प्रत्यये णकारः चकारः गच्छतः ईकारः अवशिष्यते, शप् प्रत्यये शकारः पकारः गच्छतः न तिष्ठतः अकारः अवशिष्यते, अकारः एव. इदानीं यत् नाम समयस्य अभावे विस्तारेण न वदामि किमर्थं कथं गच्छति, किन्तु शकारः गच्छति न तिष्ठति, अकारः एव तिष्ठति. अस्तु अनन्तरं वदामि, इति संज्ञाप्रकारम् अनन्तरं वदामि. विकरणप्रत्ययः इत्युक्ते वयम् उक्तवन्तः पूर्वं बहु पूर्वम् इत्युक्ते लट् लोट् लङ् विदिलिङ्, लट् लोट् लङ् विकरणप्रत्ययः इत्युक्ते लट् लोट् लङ् विदिलिङि, तत्र उदाहरणार्थं पठ् धातुः पठति, पठ् प्लस् ति लट् लकारे ति लोट् लकारे टु लट् लकारे ति तर्हि मध्ये प्रत्येकस्मिन् गणे कश्चन विकरणप्रत्ययः तयोः मध्ये उपविशति भूवादिगणे शप् उपविशति शप् अवशिष्यते अकारः एकं करपत्रमस्ति भवतः भवत्याः गृहे दशगणाः सन्ति तत्र शप् इति विकरणप्रत्ययः अस्ति शप् इति विकरणप्रत्ययः अस्ति तर्हि शप् आगच्छति अग्रे अग्रे किञ्चित् नाम सूत्रं लिखितमस्ति किन्तु लट् लोट् लङ् विधि लिङि तत्र शप् प्रत्ययः आगच्छति अतः अत्र शप् लिखितमस्ति लट् लट् विवक्षायां यत्र लट् लकारः अपेक्षितः अस्ति अस्तु तर्हि अग्रे णिच् प्रत्ययस्य अहम् उक्तवान् यत् वर्णकार्यमपि अस्ति अनन्तरं वर्णकार्यमपि अस्ति अङ्गकार्यमपि अस्ति अङ्गकार्यं कदा भवति यदा निमित्तं प्रत्ययः अस्ति प्रत्ययः निमित्तमस्ति चेत् अङ्गकार्यमस्ति अत्र मूलधातुः नाम औपदेशिकधातुः प्लस् णिच् भवति पट् प्लस् णिच् प्लस् प्लस् पट् प्लस् णिच् भू प्लस् णिच् गम् प्लस् णिच् सर्वत्र भवति तत्र प्रत्ययस्य प्रभावः कीदृशः भवति नाम पट् प्लस् णिच् इत्यस्मिन् पाठि खलु इदानीं लिख् प्लस् णिच् किं भवति लेखि लेखयति तत्र इकारस्य स्थाने एकारः भवति तत्र पठ् प्लस् इ पाठि तस्य सूत्रं भिन्नमस्ति कार्यं भिन्नमस्ति लिख् प्लस् इ लेखि तत् कार्यं भिन्नमस्ति कारणं तु णिच् एव तर्हि णिच् प्रत्ययस्य प्रभावेन कीदृशकार्यं भविष्यति धातौ तत्र त्रिविधा कार्यत्रयं त्रिविधा अस्ति कार्यं कीदृशकार्यं भवति एकमस्ति पठ् नाम यस्य धातौ यस्य धातोः मध्ये अकारः अस्ति तत्र एकं कार्यमस्ति अकारस्य वृद्धिः पाठि भवति यस्य धातोः मध्ये इक् अस्ति इक् प्रत्याहारे के के वर्णाः सन्ति इक्
विहाय सर्वे
न इ उरुल् र यस्य धातोः मध्ये इ उरुल् र अस्ति लघु दीर्घिकारः न दीर्घकारः न दीर्घकारः न मध्ये लघु इकारः उकारः ऋकारः अस्ति चेत् अन्यकार्यमस्ति गुणः लेख् इकारस्य गुणः एकारः लेख् लेखि भवति अनन्तरं तत्र हलन्तधातुः अस्ति नाम लेख् इति हलन्तधातुः अस्ति वा हल् अन्ते यस्य सः लेख् हलन्तधातुः अस्ति वा पठ् हलन्तधातुः अस्ति वा तर्हि हलन्तधातुः द्विविधः अस्ति अत्र यस्य मध्ये अकारः अस्ति अथवा यस्य मध्ये लघु एक् लघु एक् तर्हि प्रथमं कार्यमस्ति यत्र मध्ये अकारः अस्ति हलन्तधातुः द्वितीयकार्यमस्ति हलन्तधातुः मध्ये अस्ति लघु एक् अनन्तरम् अजन्तधातुः तृतीयमस्ति अजन्तधातुः तत् अजन्तधातुः अस्ति चेत् तत्र वृद्धिः भवति भू इति धातुः गुणः वृद्धिः स्मर्यते वा तत्र भू इति धातुः दीर्घकारः ऊ इत्यस्य वृद्धिः किम् गुणः भू उकारस्य गुणः कः ओकारः वृद्धिः भवति औ तर्हि भौ प्लस् णिच् इ भौ इ इदानीं भौ प्लस् इ ज्योत्स्नभगिनी कः सन्धिः भवति तत्र औ इ Yada wanda sandhi austani kim bhavati? Av bhav plus e bhavi. Bhav plus e bhavi. Anantaram shap bhavi plus a. Tatra akarasya prabhavena ikarasya sthane e. Bhave plus a. A bhave plus a. A plus a kim bhavati?
Ai.
Bhavai a.
Bhavayati.
Bhavayati. Bhavayati. Tari halant dhatuhu dvividha asti. Madhye akaraha athwa lagu ek. Ajanta dhatuhu sarve aparasmin samuhe. Tari karya trayam asti. Halant dhatuhu karya dvayam. Ajanta dhatuhu ekam karyam. Atra sutra trayam asti. Tadartham. Nama. Anic pratyayasya prabhavena kim kim karyam. Karyam trividham. Trividham.
Who ajanta dhatu?
Ach ante yasya saha.
Ajanta asti.
Bhu plus who?
No, bhu iti. Dhatu asti bhu. Tari bhavati valatu. Ach ante yasya saha. Ach ante asti va? Tari bhu ajanta dhatu asti.
Parantu bhavan avadat.
Astu? Astu, agrigachema. Tari atra nichpratyasya karanena pramukha angakaryam angakarya trayam sambhavati. Achoyaniti. Atra achoyaniti yatra dhatuhu pratamam sutram pashyamaha. Atra yatra dhatuhu bhu iva asti, ajanta dhatuhu. Ach ante yasya saha bhu dhatuhu. Vayam drishtavantaha kim bhu iti yasya kim bhavati? Ukarasya? Kim abhavat? Ha, vriddhihi. Vriddhihi abhavat khalu. Atra sutra madati angam ajantam chet antya varnasya vriddhihi bhavati yeti aneti pratyaye pare. Yeti aneti pratyaye pare. Tari anich init asti va nakaraha it yasya saha va nakaraha tishtati adva gachati gachati yato hi tasya it sangya asti ataha anit asti niti patya e pare niti iti saptami saptami iti take him
purvakaryam
tasmat purvam karyam nasti. Tari ajantam, yadha bhūdātuhu, ajantadātuhu. Bhūdātuhu, ajantadātuhu asti, anantaram pratyaha anich, anit asti va? Anich, anit asti va?
Asti.
Joshna bhagini, anit asti va? Anit avagachati, anit nama kim? Arnakāraha it.
It nakāraha.
Arnakāraha it yasya saha. Anich pratyaye nakaraha gacchati na tishtati. Ataha nakaraha nitasti. Shap pratyaye shakaraha gacchati. Ataha shakaraha it. Tasya it sangya bhavati. It sangya kimapi nasti. Yaha gacchati tasya it sangya bhavati. Gacchati na tishtati. Tari angam ajantam chet. Ajanta dhatu yatha bhu. Tatra antyavarnasya vriddhihi bhavati yeti aniti pratyaye pare. Nakar anich pratyaya anantram asti saha anit asti. Ataha vriddhihi bhavati. Iti pratamam asti. Ting pratyayati yat yaha pratyaya ante agachati. Ante dhatoho ante yaha pratyaya agachati. Yatha bhavati. Bhavati bhavataha bhavanti. Titaha anti. Bhavasi bhavati. Sarveshu lakareshu antima bhagah ting asti. Astu. Tari atra pratamam karyam asti ajanta dhatuhu. Agre me pute pashyama.
Oh, double-sided.
But the double-sided? No.
Oh, okay, you printed a book.
That's why I was confused. Nasti chinta, astu. Astu. Tari atra achoyaniti iti asya anuvritti sahitam sutram paschama angasya achaha vriddhihi yaniti. Dviti pute. Ante, anuvritti sahitam sutram asti angasya achaha vriddhihi yaniti. Yeti niti va. Yeti niti va. Atra nich nit asti. Angasya. Angam nama bhu plus anich. Pratyaya asti. Tasmad pratyayat purvam. Yavat asti tat angam asti. Tasya pratyayasya angam. Yatha bhu plus shap plus ti. Bhu plus shap plus ti. Tatra shap iti asya krite bhu iti angam asti. Anantaram bhu plus shap, bhu plus a avishishate, tatra bhava iti bhavati. Bhava plus ti, ti prati asya krite, bhava iti angam. Avagachati va? Bhu plus a prati asya krite, bhu iti angam. Bhu plus a, bhava bhavati. Bhava angam asti, ti prati asya krite. Pratyasmat purvam, pratyat purvam, yavat asti, tavat angam asti. Tari idanim bhu plus nich bhu iti angam angasya achaha bhu iti asya ach kim bhu tato ach kim u asti so bhu angam iti bhu bhu angasya achaha u karasya vriddhi bhavati niti pratyaye pare Nich pade asti. Avagachati va? Angasya, bhu iti angasya, achaha, ukarasya, vriddhihi bhavati. Kidasho pratyaha anantaram asti ched? Nit pratyaha asti. Yasya nakaraha it.
It asti.
Nakaraha gataha. Ataha nakaraha it sanyakaha. Tari nich pratyaha, nich Pratyaye ikara asti, ikara vashishite, kintu saha nit asti, nit. Nakaraha ityasya saha. Avagachati va? Tari idanim angasya achaha vriddhihi yaniti, nama nit, atra nit asti. Avagachati va? Iti prathamam karyam, ajanta dhatu. Idanim halanta dhatu nam krite sutra dvayam asti. Yatha, pat isya pati, likhiti se leki. Sutra dvayam asti. Astu. Ata upadhayaha. Ata upadhayaha vadati yat upadha. Upadha nama dhato ho antima varnaha tasmat purvam yaha varnaha. Iti upadha. Patiti dhato antima varnaha kaha? Josna bhagini. Patiti dhatau, sabhi sathi mahodaya vadatu?
Akaraha.
Na, antima varnaha?
Tha.
Tha. Tasmat purvam kaha varnaha?
A.
A.
Akaraha.
Na, akaraha kalu? Pat.
Akaraha.
Akaraha. Raghu mahodaya, Raghu vira mahodaya, avetsati va? Thakaraha antima varnaha, tasmat purvam akaraha? Asatyam. Aham yatva na uktavan yato hi samayaha nyunaha. Kintu kimasti atra alontyasya etyenena antima atra angasya achaha vriddhihi yaniti iti sutramasti. Atra alontasya vadati yat antima achaha. Kutrchi dhatau ach dvayam bhavatu maharati. Swara dvayam kutrchi bhavati dhatushu. To alontasya vadati yat antima yaha bhavati. Ante, dhatau ho ante yaha bhavati. Alontasya iti pratak sutramasti. अनेन वयं जानि अत्र भूधातौ अत्र एक एव स्वरः अस्ति, सामान्यतया एक एव स्वरः अस्ति, किन्तु कुत्रचित् स्वरद्वयं भवितुम् अर्हति. यत्र भवति पदान्ते धातोः अन्ते यः स्वरः अस्ति इति अलन्त्यस्य वदति. हा, अग्रे गच्छेम. इदानीम् उपधा नाम धातोः अन्तिमवर्णः, तस्मात् पूर्वं यः वर्णः, पठिति धातुः उपधा कः वर्णः?
अ
इति अस्ति. तर्हि अत्र उपधायां नाम अकारः, अत् इत्युक्ते अकारः. वयं दृष्टवन्तः पूर्वं यदा पाणिनिः वक्तुम् इच्छति यत् केवलम् अकारः आ तस्य दीर्घरूपं न, तर्हि तकारं योजयति अत् न इत्युक्ते ह्रस्व अकारः. अत् इत्युक्ते ह्रस्व अकारः. तर्हि अतः षष्टि उपधा अतः वृद्धिः इति अणिति प्रत्यये परे इदं सूत्रं वदति. धातोः अन्तिमवर्णात् पूर्वं यः वर्णः अकारः अस्ति चेत्, अनन्तरं यः प्रत्ययः अस्ति सः अणित् अस्ति चेत्, तर्हि उपधायाः वृद्धिः भवति. पठ् प्लस् इ
पाठ,
पाठि प्लस् इ पाठि इति अत उपधायाः इति वदति. उपधा इति वर्णः ह्रस्वकारः अस्ति चेत् सूत्रमस्ति अङ्गस्य अचः वृद्धिः यणिति. लेखनदोषः अस्ति, अनन्तरं सापेक्षामि. अङ्गस्य उपधा अतः वृद्धिः यणिति इति भविष्यति. समीकरिष्यामि, शीघ्रमेव अहं निर्मितवान्. अद्य प्रातःकाले अहं निर्मात् समयः तु नासीत्. किं फेस् कृतवान् अतः अनन्तरं समी न कृतवान् समी अतः अनन्तरं कृष्यामि. प्रथमं सूत्रमस्ति अजन्तदातुः भू इव ये अयामतः धातवः सन्ति. द्वितीयसूत्रमस्ति उपधा पठ इव उपधा अकारः अस्ति चेत्. तृतीयं सूत्रम् अस्ति लघु एक हलन्तदातुः लघु एक यथा लिख् धातुः. फुगन्त लघुपदस्य च वदति यत् सार्वधातुकप्रत्यये परे आर्धधातुकप्रत्यये परे च उपधायां लघु एकः गुणः. तर्हि णिच् केवलम् णित् अस्ति इति न, णिच् केवलं णित् इति न, णिच् आर्धधातुकप्रत्ययः अपि अस्ति. यावन्तः धातवः सन्ति, यावन्तः प्रत्ययाः सन्ति ये धातु अनन्तरम् आगच्छन्ति, धातोः साक्षात् अनन्तरम् आगच्छति चेत् ते सर्वे आर्धधातुकदातवः वा अथवा सार्धधातुकदातवः क्षम्यतां प्रत्ययाः आर्धधातुकप्रत्ययाः अथवा सार्धधातुकप्रत्ययाः. अत्र णिच् नाम प्रत्ययः सार्वधातुकः भवति षित् अस्ति चेत्, षित् षकारः इत्यस्य सः. तर्हि शप् इति प्रत्ययः षित् अस्ति अतः सार्वधातुकप्रत्ययः. णिच् षित् अस्ति वा? नास्ति, अतः आर्धधातुकप्रत्ययः. तिङ्षित् सार्वधातुकम् इति सूत्रमस्ति. यः प्रत्ययः तिङ् यथा ति भवति इति अस्मिन् तिङ् अस्ति. यः प्रत्ययः तिङ् अथवा षित् सः सार्वधातुकं, नास्ति चेत् आर्धधातुकं. तर्हि णिच् आर्धधातुकप्रत्ययः अस्ति. तर्हि आर्धधातुकप्रत्ययः परे अस्ति, तत्र लिक् प्लस् णिच् आर्धधातुकप्रत्ययः अस्ति, यतोहि षित् नास्ति तिङ् नास्ति अपि च धातोः अनन्तरम् अस्ति अतः आर्धधातुकप्रत्ययः. तर्हि लिक् प्लस् णिच् इत्यस्मिन् उपधा लघु एक अस्ति वा? लिक्
अस्ति,
इ ऊ ऋ लघुः दीर्घ न स्यात्. लिक् इत्यस्मिन् ह्रस्व इकारः अस्ति वा?
अस्ति.
तर्हि अस्यां दशायां गुणः भवति, इकारस्य गुणः कः? तर्हि लेख् भवति, लेख् प्लस् इ लेखि अत्र इति इति सूत्रत्रयमस्ति तावदेव अस्ति इति प्रमुख अणिच् अणिच् प्रकरणे णिच् कार्ये अत्र सूत्रत्रयमस्ति प्रमुखकार्यमस्ति कीदृशकार्यं धातौ णिच् प्रत्ययस्य प्रभावेन अस्तु तर्हि तर्हि अत्र अत्र पश्यामः अत्र बहु समयं यापयितुं न इच्छामि अस्मिन् किन्तु अत्र यः कोऽपि प्रत्ययः धातोः अनन्तरम् आगच्छति धातोः अनन्तरं यः कोऽपि प्रत्ययः अस्ति तत्र सर्वे श्रेणीद्वयं तत्र विभजिताः प्रत्ययाः तस्य नाम भविष्यति सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः यः कोऽपि प्रत्ययः सार्वधातुकप्रत्ययः षित् अथवा तिङ् षकारः इत्यस्य सः अथवा तिङ् तिप्तस् झि नाम भवति भवतः भवन्ति तत्र ति तः अन्ति तिङ् प्रत्ययाः सन्ति भवसि भवतः भवतः भवामि भवावः भवामः तत्र अन्ते यः भागः अस्ति तिङ् प्रत्ययः एते सर्वे सार्वधातुकप्रत्ययाः सूत्रमस्ति तिङ् षित् सार्वधातुकं प्रत्ययः तिङ् अस्ति अथवा षित् षकारः इत्यस्य सः यथा शप् प्रत्ययः शप शप् इत्यस्मिन् षकारस्य इत् भवति गच्छति तर्हि षकारः तर्हि शप् इति प्रत्ययः षित् षित् अस्ति अणिच् न तिङ् न वा षित् अतः आर्धदातकप्रत्ययः अतः णिच् आर्धदातकप्रत्ययः अस्ति किं कृतवन्तः इति द्रष्टुमिच्छामि अत्र अग्रे पश्यामः अतः लिखितमस्ति अतः यदा वयम् णिजन्तरूपं निर्मातुमिच्छामः तदा अस्माकं प्रथमः प्रश्नः अस्ति पुनः वदामि अतः यदा वयं णिजन्तरूपं निर्मातुमिच्छामः तदा अस्माकं प्रथमप्रश्नः अस्ति धातुः कः यतोहि कार्यत्रयमस्ति अतः नाम उदाहरणार्थं कर्षति कर्षति इत्यस्य धातुः कः यावद् वयं न जानीमः तावद् वयं निर्णेतुं न शक्नुमः कीदृशकार्यं भविष्यति पठति इति धातुः पठ लिखति इति धातुः लिख् वयं निर्णेतुं शक्नुमः कर्षति यदि वयं न जानीमः धातुः कः तर्हि वयं न ज्ञातुं शक्नुमः त्रिषु किं कार्यम् अत्र पठति इति धातुः पठ लिखति लिख् भवति इति भू यावत् धातुः न ज्ञातः तावत् अङ्गकार्यं किमिति ज्ञातुं न शक्नुमः अस्तु यथा प्रेरणार्थस्य विवक्षायां प्रक्रिया एवम् एकवारं लिख् धातुः पश्यामः लिख् अत्र लिख् धातुः एतत् सर्वं वयं दृष्टवन्तः इदानीम् अद्य लिख् धातुः पश्यतु अत्र भुवादयो धातवः इत्यनेन लिक् इत्यस्य धातुसंज्ञा अत्र औपदेशिकधातुः अस्ति अतः भुवादयो धातवः इत्यनेन लिक् धातुः अस्ति हेतुमति च इत्यनेन णिच् हेतुमति च इति सूत्रं वयं दृष्टवन्तः हेतुमति च यदा प्रेरणार्थे वयं वक्तुमिच्छामः तदा हेतुमति च इत्यनेन णिच् आगच्छति तर्हि लिक् प्लस् णिच् लिक् प्लस् णिच् अस्ति अस्ति न वा लिक् प्लस् णिच् लिक् किमर्थमस्ति वयं लिक् वक्तुमिच्छामः णिच् अस्ति यतोहि प्रेरणार्थे वयं वक्तुमिच्छामः अतः लिक् प्लस् णिच् अस्ति विवक्षा वक्तुमिच्छा विवक्षा अनन्तरं णिच् इत्यस्मिन् णकारचकारयोः लोपः भवति तत्र चुटु हलन्त्यं तस्य लोपः इति सूत्रत्रयमस्ति येन णकारचकारयोः लोपः भवति लिक् प्लस् इ इति अवशिष्यते अस्तु अनन्तरम् अत्र लिक् त्रिषु नाम हलन्तदातुः अथवा अजन्तदातुः हलन्तदातुः उपधायां ह्रस्वकारः अथवा लघु एक् लघु एक अतः तृतीय सूत्रमस्ति लेख प्लसि पुगन्धलघुपतस्य च उपदायां लघु एक गुणः एकः गुणः आर्धधातुक प्रत्यये परे लिच् आर्धधातुक प्रत्ययः अस्ति अतः लिख् प्लसि तत्र लेख् प्लसि लेखि इदानीं लेखि सनाद्यन्ता धातवः इति सूत्रेण लेखि इत्यस्य धातुसंज्ञा नूतनधातुः अस्ति आदिदेशिकधातुः अस्ति लेखि इति नूतनधातुः अस्ति अस्ति न वा लेखि इति धातुः अस्ति इदानीं लट् विवक्ष वयं लट् अस्माकं वर्तमानकालस्य इच्छा अतः लट् आगच्छति तत्र लट् विवक्षायां प्रथमपुरुषस्य एकवचने ति लट् ति अस्ति तर्हि लेखि अस्ति इदानीं कर्तरि शप् कर्तरि नाम कर्तरिप्रयोगे नाम कर्तरिप्रयोगे वयं जानीमः कर्मणि कर्तरिप्रयोगः लट्लकारस्य कर्तरिप्रयोगः वयम् इच्छामः चेत् अत्र अपि च तिङ् प्रत्ययः अनन्तरमस्ति चेत् अत्र लेखि प्लस्ति ति इति तिङ् अस्ति तर्हि कर्तरि कर्तरार्थे तिङ् प्रत्यये पदे षित् कृत् इति नास्ति अत्र अत्र तिङ् प्रत्ययः अस्ति तत्र शप् विहितः भवति सूत्रमस्ति कर्तरि शप् सूत्रमस्ति कर्तरि शप् तर्हि लेखि प्लस्ति इत्यस्यां दशायां कर्तरि शप् इति सूत्रेण लेखि प्लस् शप् प्लस्ति इति भवति ति इत्यस्य प्रभावेन शप् आगच्छति लेखि प्लस् शप् प्लस्ति अनन्तरम् अत्र अनुबन्ध शप् इत्यस्मिन् शकारपकारयोः लोप इत्संज्ञा लोपः तर्हि लेखि प्लस् अप्लस्ति लेखि प्लस् अप्लस्ति अनन्तरम् एकं सूत्रमस्ति सार्वधातुकार्धधातुकयोः वदति यत् धातोः अनन्तरं शप् नाम सार्वधातु शप् इति सार्वधातुकप्रत्ययः अस्ति यतोहि शप् षित् अस्ति शकारस्य इत्संज्ञा शप् इति प्रत्यये शकारः तिष्ठति अथवा गच्छति तर्हि शकारः इत् अस्ति अतः शप् प्रत्ययः षित् अस्ति तर्हि शप् षित् अस्ति अनन्तरं चिन्ता मास्तु फित् नास्ति तत्र चिन्ता मास्तु तत्र धातोः अन्तिमवर्णस्य न एकः गुणः भवति नाम धातोः अन्त्यस्य अन्तिमवर्णस्य एकः गुणः तर्हि लेखि इति ईकारान्तदातुः अस्ति लेखि इति ईकारान्तदातुः अस्ति तर्हि शपः प्रभावेन ईकारस्य स्थाने ए एतत् कार्यं वर्णकार्यम् अथवा अङ्गकार्यं वर्णकार्यं वा मम प्रश्नः अस्ति यत् कस्य प्रभावेन ई स्थाने ए भवति लेखे भवति कस्य प्रभावेन प्रत्ययस्य प्रभावेन नाम वर्णकार्यं नाम सन्धिकार्यम् अस्ति अपि अस्ति प्लस् अपि अकारस्य प्रभावेन इकारस्थाने यकारः भवति इति वर्णकार्यम् अत्र अङ्गकार्यमस्ति यतोहि प्रत्ययः प्रत्ययः कारणमस्ति तर्हि सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र अङ्गकार्यं भवति शप् प्रत्ययस्य प्रभावेन इकारस्य स्थाने ए लेखे प्लस् अ प्लस् टि लेखे अत्र लेखे प्लस् अ किं भवति ऐचो यवायावः यान्ति वान्तसन्धिः ए स्थाने ऐ लेख प्लस् ऐ प्लस् अ प्लस् टि वर्णमेलनं भवति लेखयति अत्र लेखयति इति अस्ति अवगतं वा इदानीं शीघ्रमेव अत्र अस्माकं करपत्रमस्ति नाम पी डि एफ् पुस्तकस्य उदाहरणार्थम् अहं प्रदर्शयितुमिच्छामि इदानीं शीघ्रमेव अनन्तरं समापयामः. अत्र एकादशः अभ्यासः अस्ति, पश्यन्ति वा? नाम रूपं भविष्यति, दहति इति रूपमस्ति. प्रथमधातुः अस्ति, प्रथमरूपमस्ति लट्, दहति. तत्र दह, तत्र धातुः कः? दह धातुः, दह धातुः, दह धातुः. तत्र तत्र हलन्तः अथवा अजन्तः? हलन्तः. उपधायां कः वर्णः अस्ति? हा, अकारः. तर्हि किं सूत्रमस्ति? अत्र सूत्रत्रयमस्ति.
अतः उपधायाः,
अत उपधायाः, अत उपधायाः किं वदति? अकारस्य
वृद्धिः भवति,
वृद्धिः भवति, अतः दाहयति, अतः दाहयति इति रूपं भवति. हा, अनन्तरम् अटति, अटः. तत्र कीदृश, तत्र अट् इति धातुः, अट् इति धातुः. किमर्थं, केन सूत्रेण? इति अस्ति. अनन्तरं खनति, खनति, तत्र खनति धातुः, खनति धातुः, खानयति, तदेव अत उपधायाः इति सूत्रेण. मनसि सूत्रत्रयं स्मरन्तु. अत्र अचोयणिति वदन्तु, अचोयणिति, सर्वे वदन्तु, अचोयणिति, अचोयणिति, अचोयणिति. अनन्तरम् अत उपधायाः,
अत उपधायाः,
अत उपधायाः,
अत उपधायाः.
अनन्तरं पुगन्तलघुपदस्य च, पुगन्तलघुपदस्य च, पुगन्तलघुपदस्य च इति सूत्रत्रयमस्ति. इदानीम् अग्रिमस्ति स्मरति. धातुः अस्ति स्मृ, स्मृ कीदृशधातुः अस्ति? अजन्तधातुः अस्ति, अजन्तधातुः अस्ति. स्मृ ऋकारः, कृष्ण ऋ. सविसाचि महोदय, ऋकारः, ऋकारः कृष्ण, तत्र व्यञ्जनमस्ति अथवा स्वरः? भव्या भगिनी किं वदति? भव्या भगिनी, ऋकारः स्वरः अस्ति वा अथवा व्यञ्जनम्? तत्र स्वरः अस्ति खलु, स्वरः अस्ति खलु, ऋकारः स्वरः अस्ति खलु. अतः स्वरः अजान्तदातुः अस्ति चेत् सूत्रं किम्? अचोयणिति. अचोयणिति किं कार्यमस्ति? वृद्धिः भवति, आर् आर्
आर्
वृद्धिः. गुणः अस्ति आर्,
वृद्धिः,
वृद्धिः अस्ति
आर्
आर्. तर्हि किं किं भवति? स्मारयति इति रूपमस्ति. अनन्तरं नयति, नयति इति धातुः कः? नि कीदृश धातुः अस्ति? अजन्तदातु. अजन्त सूत्रं किम्? अचोयणिति, अचोयणिति इति किं भवति? वृद्धिः भवति, नि भवति, ऐ इकारस्य स्थाने ऐ, नै प्लस् निच् इ, नै प्लस् इ. तर्हि किं भवति? सन्धिः अस्ति तत्र, ऐ स्थाने आय् भवति, नाय् नायि प्लस् शप् अ, नायि प्लस् अ प्लस् ति, नायि प्लस् अ, तत्र सन्धिः अस्ति. पुनः यान्तवान्तं, यान्तवान्तसन्धि, तत् न, नायि प्लस् अ, तत्र इ स्थाने ए
भवति,
नाये प्लस् अ प्लस् ति, ए स्थाने नाययति इति भवति. इदानीं वयं सर्वं कर्तुं शक्नुमः. कार्यत्रयमस्ति, प्रथमतया सूत्रत्रयमस्ति, प्रथमया अनन्तरं सन्धिकार्यमस्ति. सन्धिकार्यं नाम यान्तवान्तसन्धिः. प्रथमतया सूत्रत्रयम् अङ्गकार्यम् अनन्तरम् अस्माकं सन्धिकार्यं यान्तवान्तसन्धिः तावदेव अस्ति. अनन्तरं तत्र त्यजति त्यज् 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 इति धातुः त्यज् इति धातुः
हलन्तदातुः
उपधायाम्
अकारः
अकारः अस्ति. सूत्रं किम्?
अतः उपधायाः.
अतः उपधायाः तेन किं कार्यमस्ति?
वृद्धिः आकारः भवति. त्याजयति
त्याजयति इति भवति. अनन्तरं खाद् अत्र खाद् इत्यस्मिन् तत्र कीदृशधातुः अस्ति? हलन्तदातु उपधायाम् आकारः अतः कार्यं नास्ति. अधः खादयति खाद् प्लस् ई खादि खादि प्लस् अ ई स्थाने ए खादे प्लस् अ यान्तवान्त खादयति.
सो निच् प्रत्ययः किमपि न करोति.
अङ्गकार्यमत्र नास्ति.
केवलं
इति सर्वत्र अस्ति एतादृशम्. अनन्तरं द्वितीयमस्ति वर्धते. द्वितीयसमूहे एकवारं वर्धते
वर्धते
न न धातुः कः? धातु ज्ञातव्यं. धातु न धातुः कः? वृद्धधातुः. वृद्धधातुः अस्ति अजान्तात् वा हलन्तदातुः?
हलन्त
हलन्तदातुः. कीदृश तत्र उपधायां कः वर्णः अस्ति? उपधायां दीर्घ अथवा ह्रस्व? लघु एक अस्ति वा अथवा अकारः?
लघु लघु लघु
लघु एक अस्ति. तर्हि सूत्रं किम्?
फुगन्
न न एकनिमेषः सूत्रं किं सूत्रं किं पश्यतु.
फुगन्त लघु उपदस्य
फुगन् किं वदति? उपधायां लघु एकः
अङ्गस्य एकः गुणः.
उपधायां लघु एकः लघु एकः गुणः भवति गुणः भवति. तर्हि ऋकारस्य अर् तर्हि वृद् भवति वर्धि. वर् प्लस् इ वर्धि वर्धि प्लस् अ प्लस् टि वर्धि ए वर्धे प्लस् अ प्लस् टि
वर्धय
ए स्थाने ऐ भवति वर्ध इ अ ति वर्धयति न न वदामि. सामान्यतया उभयपदी भवति णिच् सामान्यतया उभयपदी भवति प्रायः सर्वत्र. केचन अपवादाः भवन्ति. भावयति भावयते लेखयति लेखयते प्रायः सर्वत्र. केचन परिगणिताः अपवादाः सन्ति. ते के इति स्मर्तुं काठिन्यमस्ति इति कारणतः वयं प्रायः सर्वत्र ति इति वदामः नाम परस्मैपदी रूपेण वयं वदामः. किन्तु अस्ति वर्धयति प्रायः अस्ति एव. वादयति वादयते किञ्चित् अभ्यासं वयं कृतवन्तः. बहु किमपि अधीतवन्तः. इदानीम् अग्रिमे सप्ताहे अतः अग्रे गच्छामः. सर्वेषां नैपुण्यं जातम्. अस्मिन् सप्ताहे किं कर्तव्यमस्ति? अस्मिन् करपत्रे यावत्पर्यन्तं वयं पठितवन्तः पुनः पठन्तु.
सत्यं
पुनः पठन्तु. वयं बहु किमपि वयं चर्चितवन्तः अस्मिन् विषये बहु किमपि. अतः सूत्राणि नाम त्रीणि सूत्राणि सन्ति. त्रीणि सूत्राणि पुनः सम्यक्तया अवगन्तव्यानि सूत्राणि त्रीणि सूत्राणि. नाम मूले अचोयणिति अजन्तदातुः अस्ति चेत् हलन्तदातुः अस्ति चेत् उपधा अत उपधायाः पुगन्तलघुपदस्य च सूत्रत्रयस्य किं कार्यमिति अपि ज्ञातव्यमस्ति. तस्मात् पूर्वमपि यत् लिखितमस्ति तत् अवगन्तव्यमस्ति. अनन्तरम् अग्रे गच्छेम. अस्तु समीचीनम् अस्तु. नमस्कारः.